इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्याम् उदीयमानं पूर्वोत्तर निवेशक शिखर सम्मेलनम् उद्घाटयिष्यति। द्विदिवसात्मकस्य अस्य शिखर सम्मेलनस्य उद्देश्यं पूर्वोत्तर क्षेत्राणाम् अवसराणां भूमिरूपेण उन्नतीकरणमिति वर्तते, तथा च दैशिक वैश्विकयोः निवेशस्य कृते आकर्षण प्रदानमिति वर्तते। एतस्मिन् शिखर सम्मेलने मन्त्रिस्तरीयाणि सत्राणि, व्यवसायतः प्रशासनं यावत् सम्बद्धानि सत्राणि, निवेश प्रोत्साहनाय च राज्यप्रशासन केन्द्रीय मन्त्रालयाभ्याम् आयोक्ष्यमाणानि उपवेशनानि प्रदर्शनानि च सम्मिलितानि सन्ति। द्विदिवसात्मके एतस्मिन् शिखर सम्मेलने विभिन्नानां पूर्व शिखर सम्मेलन गतिविधीनाम् अन्तिमा परिणति भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः अवदत् यत् भारतं सिन्दूराभियानस्य अन्तर्गतं आतंकवादीनां गुप्तस्थानानि नाशयित्वा पाकिस्तानदेशाय पर्याप्तं प्रत्युत्तरम् अददात्। असौ अघोषयत् यत् प्रशासनं सशस्त्रसेनायै कार्यस्वातन्त्र्यं दत्तवानिति, येन तिसृणां सेवानां सामरिक परिवेष्टनं कर्तुं शक्यते स्म, येन पाकिस्तानं शरणागन्तुं बाध्यम् अभवत् इति। श्रीमोदी राजस्थानस्य बीकानेरस्थले एकां जनसभां संबोधयन् इमां वार्तां कथितवान्।
मैं देशवासियों से कहता हूं, जो सिंदूर मिटाने निकले थे उन्हें मिट्टी में मिलाया है, जो हिंदुस्तान का लहू बहाते थे आज कतरे कतरे का हिसाब चुकाया है, जो सोचते थे भारत चुप रहेगा आज वो घरों में डूब डूब के पड़े हैं, अपने हथियारों पर घमंड करते थे, जो अपने हथियारों पर घमंड करते थे आज वो मलबे के ढेर में दबे हुए हैं।
इतः पूर्वं बीकानेरस्थलस्य पलाना इत्यत्र आयोजितायां जनसभायां प्रधानमन्त्री नरेन्द्रमोदी भूयोऽपि 26,000,000,000,000 रूप्यकाणां विकासात्मक परियोजनाः राष्ट्राय समर्पितवान्। अत्रावधौ प्रधानमन्त्री 18 राज्यानां केन्द्रशासितप्रदेशानाञ्च 80 जनपदेषु प्रसृतानां 3,100,000 पुनर्विकसितामृतस्थानकानामपि उद्घाटनं कृतवान्। अत्रान्तरे प्रधानमन्त्री बीकानेर मुम्बई एक्सप्रेस रेलयानाय अपि हरितध्वजं प्रदर्शितवान्। विदेशमन्त्री डॉ एस जयशंकरः ह्यः बर्लिन नगरे यूरोप महाद्वीपे भारतीय राजदूतानां क्षेत्रीय सम्मेलनस्य अध्यक्षतां कृतवान्। एकस्मिन् सामाजिक सन्देश पटले डॉ जयशंकरः अलिखत् यत् सम्मेलनावधौ सिन्दूराभियाने अथ च आतंकवादं प्रति भारतस्य शून्य सहिष्णुतायाः सन्देशे चर्चा सम्पादिता। असौ परिवर्तमान समये यूरोपेन सह गहनतया विविधेषु पक्षेषु विचार विमर्शोऽपि जातः। वैश्विक रेटिंग एजेंसी फिच रेटिंग्स इत्यनेन आगामीषु 5 वर्षेषु भारतस्य सकल गृहोत्पाद वृद्धिमानं 0.2% अपचीय 6.4% यावत् कृतमस्ति। अयं पदक्षेपः साम्प्रतिकेषु वर्षेषु देशस्य श्रमशक्ति सहभागित्वमाने तीव्रवृद्धेरनन्तरं समुत्थापितः। फिच इत्यनेन प्रकाशितं यत् भारताय संशोधितानुमानं श्रमनिवेशः मुख्यतया समग्रवृत्त्यवसरादधिकं योगदानं दर्शयति। डियोगो गार्सिया इत्येतं समेत्य चागोस द्वीप महाद्वीपस्य उपरि मॉरिशस देशीय सार्वभौमत्वस्य पुनरागमनस्य विषये ब्रिटेन मॉरिशस देशयोः मध्ये जातस्य सन्धि हस्ताक्षरस्य भारतं स्वागतम् अकरोत्। विदेशमन्त्रालयः एकस्मिन् वक्तव्ये अवदत् यत् अस्य द्वैपाक्षिक सन्धिद्वारा चागोस इत्येतस्य दीर्घकालस्य विवादस्य औपचारिक निराकरणम् ऐतिहासिकोपलब्धिः अस्ति। आईपीएल इत्येतस्यां क्रिकेट स्पर्धा मालिकायां ह्यः रात्रौ अहमदाबाद नगरे नरेन्द्रमोदी क्रीडांगणे लखनऊ सुपर जायंट्स दलेन गुजरात टाइटन्स दलं 33,000 धावनांकैः पराभूतम् इति वार्ताः।